अथ कीलकस्तोत्रम्। मार्कण्डेय उवाच, ॐ विशुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेय प्राप्ति निमित्ताय नमः सोमार्थधारिणे। सर्वमेतद्विजानीयान् मन्त्राणामपि कीलकम्, सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः। सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति। न मन्त्रोन्नौषधं तत्र न किञ्चिदपि विद्यते। विना जाप्येन सिद्ध्यन्त सर्वमुच्चाटनादिकं, समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमांहरः। कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्। स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं च कारसः, समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्। सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः। कृष्णायां वा चतुर्दश्याम् अष्टम्या वा समाहितः, ददाति प्रतिगृह्याति नान्यथैषा प्रसीदति। इत्थं रूपेण कीलेन महादेवेन कीलितं, यो निष्कीलां विधायैनां नित्यं जपति संस्फुटं। ससिद्ध सगणस्सोऽपि गन्धर्वो जायते नरः, न चैवाप्यट्टतस्तस्य भयं क्वापीह जायते। नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्। ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति, ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधै। सौभाग्यादि च यत्किञ्चित् दृश्यते ललनाजने, तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्। शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः, भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः। शत्रुहानि परो मोक्ष स्तूयते सा न किं जनैः। ॐ